आदिरभूर्महिमाघोरमेषाम् विश्वम् जीवन्तमसो निरमोजि महिज्योतिष्पन्था दक्षिणाया अदर्शि उच्चारिविदक्षिणावन्तो अस्तुर्ये अस्मदास्तये सूर्येण हिरण्यतावृतत्वम् भजन् देवासोदास्तोमप्रतीरन्त आयुः देवी भूर्त्यर्दक्षिणादेव यज्जानकवारिभ्यो नैरे गृह्णन्ति अथा नः प्रयतदक्षिणासोपद्यभिया भगव प्रणन्ति सदधारम् वायुमर्कम् स्वर्विदम् द्विचक्षधत्ते अभिचक्षते हविः ये वृणन्ति प्रजयच्छम् दिशम् गमेते दक्षिणाम् दुहते सप्तमादरम् दक्षिणावान् प्रथमो हूतये दक्षिणावान् ग्रामनीरग्रामेति तमेव मन्ये नृपतिम् जनानाम् यः प्रथमो दक्षिणामाभिवाय तमेव ऋषिन्दमु ब्रह्माणमाहुर्यज्ञम् सा मगामुक्तसासम् स शुक्रस्य तन्वो वेदतिस्रो यः प्रथमो दक्षिणया धराध दक्षिणास्वम् दक्षिणागाम् ददादिदक्षिणा चन्द्रमुदयद्धिरण्यम् दक्षिणान्नम् वनुतेजो न आत्मा दक्षिणाम् कर्म कृणुते विजानन् न भोजामम् नोर्नन्यच्छमीयोर्नरिष्यम् दिनम् य सन्देहभोजाः इदम् यद्विश्वम् भुवनम् स्वस्यैतत्सर्वम् दक्षिणैभ्यो ददाति भोजायज्ञस्य रभिम् यो निमग्रे भोजायज्ञर्मध्वा अय्या सुवासाः भोजायज्ञरन्धप्रेयम् सुराय भोजायज्ञुर्ये अभूताः प्रयन्ति भोजाया स्वम् संव्रेजम् चासुम् भोजायास्ते कन्या आसुम्भमाना भोजस्येदम् पुष्करणी भवे स्वपरिष्कृतम् देवमानेव चित्रम् भोजमस्वासृष्टुबाहो अरन्ति सुभद्रसो वर्तते दक्षिणायाः भोजम् देवासोपताभरेषु भोजः शत्रून् समनीयेषु चेताः